एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नेपालानां महतः पर्वणः विजयादशम्याः अवसरे आत्मीयानां जनानां गृहगमनक्रमेण सहैव काष्ठमण्डप उपत्यकायाः मार्गेषु जनसम्मर्दः वर्धमानोऽस्ति। अद्य आश्विन शुक्ल द्वादशी विजयादशम्याः तृतीय दिवसोऽस्ति। अद्यापि प्रसादाशीर्वाद ग्रहणार्थं मान्यजनानां गृहान् प्रति गमनस्य क्रमः सञ्चलन् अस्ति। विजयादशम्याः दिनात् कोजाग्रत पूर्णिमा पर्यन्तं मान्यजनानां कराभ्याम् देव्याः प्रसाद ग्रहणस्य परम्परा वर्तते। नेपालस्य कतिसूचित स्थानेषु केवलं विजयादशम्याः एकस्मिन् दिने एव प्रसादाशीर्वादादि ग्रहणस्य प्रचलनमस्ति। विगत वर्षापेक्षया अस्मिन् वर्षे विजयादशम्याः दिवसादेव काष्ठमण्डप उपत्यकायां जनानां सम्मर्दः वर्धमानो दृश्यते। घटस्थापनायाः कतिचित् दिनानि पूर्वम् अविरल वर्षा कारणात् दुरापन्नै जलविप्लवै भूस्खलनैश्च राजधानीतो बहिर्गमनाय मार्गावरोधस्य सन्देश प्रवाहात् राजधानीतः बहिर्गन्तृणां यात्रिणां नैयून्यात् राजधान्यां जनानां गतिविधयः सघनाः दृश्यन्ते। नवरात्रस्य घटस्थापनायाः दिवसे स्थापितानां दुर्गायाः मूर्तयः ह्यः विसर्जिताः सन्ति। घटस्थापनायाः दिने स्थापिताः मूर्तयः नवरात्रे विशेषां पूजां विधाय दशम्या दिवसे दुर्गा विसर्जनानन्तरं ह्यः एकादश्या दिवसे विसर्जिताः सन्ति। झापा जनपदस्य विभिन्नेषु स्थानेषु दुरापन्नासु दुर्घटनासु त्रयो जना मृताः सन्ति। दुर्घटनायां द्वौ जनौ आहतौ स्तः। ह्यः कमलग्रामपालिकायां द्वौ, मेचीनगर नगरपालिकायां एको जनः मृतौ अस्ति। कमलग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य अमलडाँगी वर्तिनी पूर्व पश्चिम राजमार्गे केर्खास्थानात् दमकम् प्रति गच्छतः मोटरसाइकल यानस्य दुर्घटनायां द्वौ जनौ मृतौ आस्ताम्। दुर्घटनायां शिवशताक्षी नगरपालिकायाः अष्टमवडा क्षेत्रस्य त्रयस्त्रिंशत् वर्षीयः अनिल कुमार लिम्बु, विंशति वर्षीयः सोमराज लिम्बु च मृतौ इति जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। एवमेव पूर्व पश्चिम राजमार्गान्तर्गते मेचीनगर नगरपालिकायाः सप्तमे ओडा क्षेत्रे मोटरसाइकल यानेन साइकल यानं प्ररितं सत् मेचीनगर नगरपालिकायाः सप्तम ओडा क्षेत्रस्य पञ्चाशत् वर्षीयः विगेन राजवंशी मृतः इति प्रहरिणा ज्ञापितमस्ति। लमजुङ जनपदे जीपयान दुर्घटनायां द्वाविंशति जनाः आहताः सन्ति। लमजुङ जनपदस्य सारिङ स्थानात् बेसी शहरं प्रति गच्छत् जीपयानं मकैडाँडा स्थाने दुर्घटितम् आसीत्। आहतेषु पञ्चजनाः गभीराः वर्तन्ते। तेषां चितवनवर्तिनी भरतपुर चिकित्सालये उपचारः जायमानोऽस्ति इति प्रहरिणा ज्ञापितमस्ति। अन्येषाम् आहतानां जनपद चिकित्सालये एव उपचारः जायमानोऽस्ति। दोलखा जनपदस्य वैतेश्वर ग्रामपालिकायाः षष्ठ वडा क्षेत्रस्य गोपीखोला स्थाने द्वयोः बसयानयोः घर्षणेन दुर्घटना सञ्जातास्ति। ह्यः काष्ठमाण्डपात् रामेछाप जनपदं प्रति गच्छतः बसयानस्य ओखलडुंगा जनपदात् काष्ठमाण्डपं प्रति आगच्छतः बसयानस्य च घर्षणेन द्वाभ्यां चालकाभ्यां सह अष्टौ जनाः आहताः सन्ति इति दोलखा जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। जलवायु विज्ञहि जलवायु परिवर्तनस्य कारणेन पृथ्व्याः तापमाने वृद्धिं गच्छति, वर्षा प्रणाल्यामपि परिवर्तनं जायमानमस्तीति कथितमस्ति। अस्यैव परिवर्तनस्य कारणेन अस्य वर्षस्य वर्षाक्रमः पूर्ववर्षापेक्षया अस्मिन् वर्षे दशदिवसेभ्य पश्चादेव देशात् निर्गतः इति तेषां कथनमस्ति। अस्यैव आश्विनस्य दशमैकादश द्वादश दिवसेषु जाताः अविरल वर्षाः जलवायु विज्ञानस्य परिवर्तनादेव अभवन् इति विज्ञानां विश्लेषणं वर्तते। धौलागिरी हिमशिखरारोहणस्य क्रमे मृतानां रूसदेशस्य पञ्चपर्वतारोहिणां शवान् अधुनावधि आनेतुं नाशक्यत। सप्तसहस्रैकशत मीटर उच्च स्थाने प्राप्तानां शवानां आनयने काठिन्यं जायमानमस्ति। प्रतिकूलस्य वातावरणस्य दुर्गमस्य भूगोलस्य च कारणेन धौलागिरी हिमशिखरात् शवानयन प्रयासः सफलो नाभूदिति म्याग्दी जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः भरतः श्रेष्ठ अज्ञापयत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी विश्व खाद्य मञ्चस्य उपवेशे भागं गृहीतुम् इटाली देशस्य राजधानीं रोम नगरं प्रति प्रस्थितवान् अस्ति। संयुक्त राष्ट्र संघीय खाद्य कृषि संघटनस्य आयोजनायाम् आयोक्ष्यमाणे मञ्चस्य उपवेशे भागं गृहीतुम् मन्त्रिण अधिकारिण नेतृत्वे प्रतिनिधिमण्डलम् ह्य इटाली देशं प्रति अगच्छदिति मन्त्रिण अधिकारिण संचार संयोजक प्रवीण पोखरेल असूचयत। मञ्चस्य उपवेश अक्टूबर मासस्य चतुर्दशात् दिवसात् अष्टादश दिवस पर्यन्तं संचालिष्यति। स्याङ्जा जनपदस्य एकादशातिरिक्ताः पत्राचार कार्यालयाः निरस्ताः सन्ति। नेपाल सर्वकारेण गतं विक्रमवर्षीयं पञ्चमीम् अतिरिक्त पत्राचार संशोधन नियमावलीं क्रियान्वयेन सहैव तत्रत्यः एकादश पत्राचार कार्यालयाः निरस्ताः वर्तन्ते। एतत्पूर्वं त्रिपञ्चाशत अतिरिक्त पत्राचार कार्यालयैः सेवायां प्रदीयमानायां एकादश कार्यालयाः निरस्ताः सन्तीति जनपद पत्राचार कार्यालयस्य प्रमुखः गुरूप्रसाद मरासिनी असूचयत्।